एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा प्रधानमन्त्री केपी शर्मा ओली निगदति सर्वेषां स्तराणां सर्वकारैः जनतां प्रति सेवाभावेन उत्तरदायिनी भूत्वा प्रस्तुतव्यम् ललितपुर महानगरपालिकायाः षडुत्तर शततम स्थापना दिवसस्य अवसरे ह्य आयोजिते कार्यक्रमे प्रधानमन्त्री ओली वर्तमान सर्वकारः जनतायाः समस्यानां समाधानाय विकासस्य आकांक्षायाः पूरणार्थञ्च प्रतिबद्धो भूत्वा प्रवर्तितोऽस्तीति प्रावोचत् प्रधानमन्त्री ओली विपन्नतायाः निवारणाय अधिकः प्रयासः विहितोऽस्ति मार्गसेतु प्रभृति भौतिक पूर्वाधाराणां निर्माणं विहितं जनतायाः जीवनस्य उन्नयनाय राज्येन अधिकतमः प्रयासः विहितश्च वर्तते देशस्य अर्थतन्त्रस्य आकारः वर्धितोऽस्ति वैदेशिक मुद्रा संचितौ वृद्ध्या सहैव विकास निर्माणस्य कारेण गतिः गृहीतास्तीति च प्रावोचत् तदवसरे प्रधानमन्त्री ओली नेवार संस्कृत्या पूर्णं देशस्यैव समृद्धं सांस्कृतिकं ललितपुरनगरमस्तीत्यतः महानगरेण सम्पदां संरक्षणं विधाय सांस्कृतिक महत्वस्य स्थलानां प्रवर्धनेन पर्यटन विकासाय योगदानं प्रदातुं शक्यते इति उदयत् कार्यक्रमे ललितपुर महानगरपालिकायाः प्रमुखः चिरीबाबु महर्जन उपभोक्तृ समितेर माध्यमेन सम्पदः संरक्षणं जायमानमस्तीति असूचयत् उपप्रमुखः मञ्जली शाक्यः महानगरं हस्तकलाया राजधानीम् उद्घोषयितुम् अनुरुद्धवती प्रतिनिधि सभायाः अन्तर्गतायाः अर्थ समित्या 63-2000 वैक्रमाब्धं सुरक्षित व्यवसायाधिनियमं संशोधयितुं निर्मितं विधेयकमाधृत्य विमर्शनम् आरब्धमस्ति समित्या 63-2000 वैक्रमाब्धं सुरक्षित व्यवसायाधिनियमं संशोधयितुं निर्मितं विधेयकमाधृत्य ह्य विहिते विमर्शने संशोधनकर्तृभिः सांसदैः विज्ञैश्च सह विमृष्टमासीत् विमर्शने सांसदः सुरक्षित व्यवसायाधिनियमं क्रियान्वयनयोग्यं विधातुं बलं दत्त्वा विषयानुसारेण सरलतया बोधगम्यतया च भाषया अधिनियमस्य नाम परिवर्तनीयमिति परामृष्टवन्तः उपवेशे चलसम्पत् सम्बद्धान् व्यवसायान् सुरक्षितान् व्यवस्थितान् च विधातुं तदनुसारेणैव विधेयकस्य नाम निर्धारणीयम् इत्यादीनि परामर्शनानि सांसदैः प्रदत्तानि आसन् राष्ट्रियसभायाः विधायन व्यवस्थापन समित्या तिलगंगा विश्वविद्यालय विधेयकमाधृत्य शिक्षाविद्भिः विधिविद्भिः च सह विमृष्टमस्ति सिंहप्रासादे ह्य उपविष्टे उपवेशे विधिविज्ञः माधव प्रसाद पौडेलः तिलगंगा विश्वविद्यालयं नेत्राध्ययन प्रतिष्ठानत्वेन संस्थापयितुं बलं प्रादात् शिक्षाविद् डॉक्टर विद्यानाथ कोइराला नेत्र सम्बद्ध अध्ययन अध्यापनानुसन्धान प्रभृतिषु विषयेषु केन्द्रीकृत्य विषयके व्यवस्थां विधातुं परामर्शमदात् सांसदः तिलगंगा विश्वविद्यालयः अन्येभ्य विश्वविद्यालयेभ्य भिन्न प्रकृतिकः वर्तते इत्यतः विषयेऽस्मिन् सर्वतः विमर्शं विधाय परामर्शनानि संकलनीयानीति विचारान् व्यक्तवन्तः प्रधानमन्त्रिणः केपी शर्मा ओलिनः समक्षं त्रिभुवन विश्वविद्यालयस्य भूम्याः अन्य सम्पदश्च अन्वेषणायोगेन ह्य प्रतिवेदनं प्रस्तुतमस्ति बालुआचारवर्तिनि प्रधानमन्त्री निवासे विश्वविद्यालयस्य पदाधिकारिभिः सहितायाः शिक्षामन्त्रिणः विद्याभट्टराय इत्यस्याश्च उपस्थितौ आयोगस्य सदस्यः महेन्द्र थापा प्रतिवेदनमिदं प्रास्तौत् गत ज्येष्ठ मासस्य 17 दिवसे मन्त्री परिषदः पूर्व सचिवस्य शारदा प्रसाद त्रितालस्य संयोजकत्वे 5 सदस्यात्मकः आयोगः संघटितः आसीत् प्रतिवेदनं गृह्णन् प्रधानमन्त्री ओली प्रतिवेदनेन निर्दिष्टानां विषयानां क्रियान्वयनं विधाय अधिकस्याध्ययनस्य अन्वेषणस्य च आवश्यकतायां सत्यां तदपि कृत्वा शीघ्रं निष्कर्षे प्राप्तव्यमिति अवोचत् प्रतिनिधिसभायाः सभामुखः देवराज घिमिरे भाषते संसदः भूमिका प्रभावकारिणी विधातव्या अन्तर्व्यवस्थापिका मञ्चस्यायोजनायां गण्डकी प्रदेशसभा सचिवालयस्य व्यवस्थापने च पोखरायाम् आयोजितस्य अन्तर्व्यवस्थापिका सम्मेलनस्य उद्घाटनं विदधानः सभामुख घिमिरे प्रतिनिधिसभया राष्ट्रियसभया सहैव सप्तानामेव प्रदेशानां सांसदानां भूमिका प्रभावकारिणी विधातव्ये त्यत्र बलं प्रादात्। राष्ट्रसभायाः अध्यक्षः नारायण प्रसाद दाहालः संविधाने समीचीनेषु प्रावधानेषु सत्स्वपि तेषां प्रभावपूर्णस्य क्रियान्वयनस्य अभावेन विभिन्नाः प्रश्नाः उत्थाप्यमानाः सन्तीति उदैरयत्। परराष्ट्र मन्त्री डा अर्जुन राणा देउवा भाषते लैंगिकाल्पसंख्यकानाम् अधिकाराणाम् संरक्षणस्य क्षेत्रे नेपालः विश्वस्यैव उदाहरणे स्थलं वर्तते। जर्मनी देशस्य बर्लिन नगरे ह्य आयोजितं समानाधिकार सम्बद्धं राष्ट्रिय विधि नीतिषु समावेशितेति विषयकं सम्मेलनं सम्बोधयन्ति परराष्ट्र मन्त्री डा राणा नेपालेन लैंगिक यौनिकाल्पसंख्यकानां समावेशीकरणस्य मानवाधिकाराणां संरक्षणस्य च पक्षे महती उपलब्धि अधिगता अस्तीति असूचयत्। गृहमन्त्री रमेश लेखकः वदति लोकतन्त्रस्य पूर्वशपथः शान्ति सुरक्षा वर्तते। लुम्बिनी प्रदेश स्तरीय सुरक्षा गोष्ठीं पूर्वे द्युः भैरहवा स्थाने सम्बोधयन् गृहमन्त्री लेखकः देशे विधेय शासनस्य अभावे लोकतन्त्रस्य सार्थकता न भवतीति अतर्कयत्। संविधानस्य रक्षायै क्रियान्वयनाय च शान्ति सुरक्षायाः सुनिश्चयनं विधातव्यमिति गृहमन्त्री लेखकः बलं प्रादात्। सार्वजनिक सेवा प्रसारण संस्थायाः नवनियुक्तः कार्यकारिध्यक्षः डा महेन्द्र विष्ट ह्यः सिंहप्रासादे पदभारम् अग्रहीत्। पदभारं गृह्णन् अध्यक्षः डा विष्ट रेडियो नेपालस्य नेपाल टेलिभिजनस्य च गौरवपूर्णम् इतिहासं संरक्षितुं प्रवर्धयितुं सार्वजनिक सेवा प्रसारणस्य मूलं ध्येयं वर्तते इति अवदत्। अध्यक्षः डा विष्टः सार्वजनिक सेवा प्रसारणे रूपान्तरणक्रमे आपतितानां काठिन्यानां प्रतिकरणं विधाय सर्वैः स्वं स्वं दायित्वम् उत्साहपूर्वकं वोढव्यमिति अभाषत। तदवसरे रेडियो नेपालस्य नायब कार्यकारी निर्देशकः खगेन्द्र खत्री नेपाल टेलिभिजनस्य नायब महाप्रबन्धकः विष्णुराम नेउपाने च धारणां व्यक्तवन्तौ। नेकपा एकीकृत समाजवादी दलेन तत्कालं केनापि दलेन सह एकता न करिष्यते। दलस्य स्थायी समितेः संचालति उपवेशे पारितासु कार्ययोजनासु कार्यदिशि सिद्धान्ते च एकरूपतायाः असन्धरणं यावत् अन्य दलैस्सह एकतायाः सम्भावना नास्तीति निष्कर्षः प्रकाशितो वर्तते। राष्ट्रिय स्वतन्त्र दलस्य सभापतिं रवि लामिछानेभिदं पुनः चतुर्दिनानि निग्रहणे संस्थापयितुं कास्की जनपद न्यायालयेन अनुमतिः प्रदत्ता अस्ति। जनपद न्यायालयस्य न्यायाधीशस्य हिमलाल बेलवासे इत्यस्य न्यायपीठेन सभापतिं लामिछानेभिदं निग्रहणे संस्थापयितुं अष्टमवारं समयावधि वर्धितोऽस्ति। इति समाचारः।